ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। श्रीशुक उवाच। गर्गः पुरोहितो राजन् यदूनां सुमहातपाः व्रजं जगामनन्दस्य वसुदेवप्रचोदितः। तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः। आनर्चाधोक्षजधिया प्रणिपातपुरः सरम् सूपविष्टं कृतातिथ्यं गिरासोनृतया मुनिम्। नन्दयित्वा ब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम्। महद्विचलनन्द्रीणां गृहिणां दीनचेतसां निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित्। ज्योतिषामयनं साक्षात् यत्तज्ज्ञानमतीन्द्रियं प्रणीतं भवता येन पुमान् वेदपरावरम्। त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि। बालयोरनयोर्नृणां जन्मना ब्राह्मणो गुरुः। गर्ग उवाच। यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः। सुतं मया संस्कृतं ते मन्यते देवकी सुतं। कंसः पापमति सख्यं तव जानकदुन्दुभेः। देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति। इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिका वचः। अपि हन्ता गता शङ्कस्तर्हि तन्नो नयो भवेत्। नन्द उवाच। अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे। कुरु द्विजाति संस्कारं स्वस्ति वाचनपूर्वकम्। श्रीशुक उवाच। एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् चकार नामकरणं गूढो रहसि बालयोः। गर्ग उवाच। अयं हि रोहिणी पुत्रो रमयन् सुहृदो गुणैः। आख्यास्यते राम इति बलाधिक्याद् बलं विदुः। यदूनाम पृथग्भावात् सङ्कर्षणमुषन्त्युत आसन् वर्णास्त्रयो यस्य गृह्णतोऽनुयुगं तनोः। शुक्लो रक्तस्तथा पीत इदानीं कृष्णताङ्गतः। प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते। बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेदनो जनाः। एषवः श्रेय आधास्यत् गोपगोकुलनन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ। पुराणेन व्रजपते साधवो दस्युपीडिताः। अराजके रक्ष्यमाणा जिज्ञुर्दस्यून् समेधिताः। य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः। नारयोऽभिभवन्त्येतान् विष्णुपक्षानि वासुराः। तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः। इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते। नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम्। कालेन व्रजताल्पेन गोकुले रामकेशवौ जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजर्रतुः। तावङ्घ्रियुग्ममनुकृष्य सरीश्रिपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु। तन्नादरिष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्तिमात्रोः। तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम्। दत्त्वा स्तनं प्रपिबतो स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम्। यर्यङ्गनादर्शनीयकुमारलीलावन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः। वत्सैरितस्ततौ भावनुकृष्यमाणौ प्रेक्षन्त्य उद्धितगृहा जहृसुर्हसन्त्यः। शृङ्ग्यग्निदंष्ट्र्यसि जलद्विजकण्टकेभ्यः क्रीडापरावति चलौ स्वसुतौ निषेद्धुम्। गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसो नवस्थाम्। कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा। ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः। सह रामो व्रजस्त्रीणां चिक्रीडे जनयन्मुदम्। कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् शृण्वत्याः किल तन्मातुरिति होतुः समागताः। वत्सान्मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः। स्तेयं स्वाद्वत्यथ दधिपयः कल्पितैस्तेययोगैः। मर्कान् भोक्ष्यन् विभजति सचेन्नात्ति भाण्डम् भिनत्ति द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्यतोकान् हस्ताग्राह्ये रचयति विधिम् पीठको लूखलाद्यैः छिद्रम् ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ध्वान्तागारे धृतमणिगणम् स्वाङ्गमर्थप्रदीपम् काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः एवम् धार्ष्ट्यान्युषति कुरुते मेहनादीनिवास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते इत्थम् स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न युपालब्धुमैच्छत् एकदा क्रीडमानास्ते रामाद्या गोपदारकाः कृष्णोमृतम् भक्षितवानिति मात्रेण्यवेदयन् सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी यशोदाभयसम्भ्रान्त प्रेक्षणाक्षमभाषत कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः वदन्ति तावकाह्येते कुमारास्ते ग्रजोऽप्ययम् श्रीकृष्ण उवाच नाहम् भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः यदि सत्यगिरस्तर्हि समक्षम् पश्य मे मुखम् यद्येवम् तर्हि व्यादेहित्युक्तः स भगवान् हरिः व्यादत्ता व्याहत ईश्वर्यः क्रीडामनुजबालकः सा तत्र ददृशे विश्वम् जगत्स्थाश्नुचखम् दिशः साद्रिद्वीपाब्धिभूगोलम् सवायुवग्नीन्दुतारकम् ज्योतिश्चक्रम् जलम् तेजो नभस्वान् वियदेव च वैकारिकाणि इन्द्रियाणि मनोमात्रा गुणास्त्रयः एतद्विचित्रम् सहजीवकाल स्वभावकर्माशयलिङ्गभेदम् सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजम् सहात्मानमवाप शङ्काम् किम् स्वप्न एतदुतदेव माया किम् वा मदीयो बत बुद्धिमोहः अथो अमुष्यैव ममार्भकस्य यः कश्चन उत्पत्तिकात्मयोगः अथो यथावन्न वितर्कगोचरम् चेतो मनः कर्मवचोभिरञ्जसा यदाश्रयम् येन यतः प्रतीयते सुदुर्विभाव्यम् प्रणतास्मि तत्पदम् अहम् ममासौ पतिरेश मे सुतो व्रजे स्वरस्याखिल वित्तपासति गोप्यश्च गोपा सह गोधनाश्च मे यन्माययेत्थम् कुमतिः स मे गतिः इत्थम् विदिततत्त्वायाम् गोपिकायाम् स ईश्वरः वैष्णवीम् व्यतनोन्मायाम् पुत्रस्नेहमयीम् विभुः सद्यो नष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् प्रवृद्धस्नेहकलिल हृदयासीद् यथा पुरा त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः उपगीयमानमाहात्म्यम् हरिम् सामन्यतात्मजम् राजोवाच नन्दः किमकरोत् ब्रह्मन् श्रेय एवम् महोदयम् यशोदा च महाभागा पपौ यस्याः स्तनम् हरिः पितरौ नान्वविन्देताम् कृष्णोदारार्भके हितम् गायन्त्यद्यापि कवयो यल्लोकशमलापहम् श्रीशुक उवाच द्रोणो वसूनाम् प्रवरोधरया सह भार्यया करिष्यमाण आदेशान् ब्रह्मणस्तमुवाचः जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ भक्तिः स्यात् परमालोके ययाञ्जो दुर्गतिम् तरेत् अस्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः जज्ञे नन्द इति ख्यातो यशोदा साधरा भवत् ततो भक्तिर्भगवति पुत्री भूते जनार्दने दम्पत्योर्नितरामासीत् गोपगोपी शुभारत कृष्णो ब्रह्मण आदेशम् सत्यम् कर्तुम् व्रजे विभुः सह रामो वसंश्चक्रे तेषाम् प्रीतिम् स्वलीलया ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शनेऽष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।